ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೇ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೇ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮಣ್ಯಭೂತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವರೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಣಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತ್ತನೋರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೆ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿಗುಂ ಶ್ರೀಃ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಧಿವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷತ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌಯಸ್ತಾಂ ಗ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಃ ಸುಮಂಗಳಃ ಯೇ ಸೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷುಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳಯೇಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾರೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ರಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ತೇಹಸ್ತ ಇಷವಃ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾಣಾಂ ಮುಖ ಶಿವೋ ನಃ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನುಃ ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಷನ್ನಶ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಶಂ ಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಢುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋಯ ಇಷುಭಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जरायत्वे श्रीमते पथीनाम् पतये नमो नमो बभ्रुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तताविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिने स्तेनानाम् पतये नमो नमो निषङ्गिन इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिघाभुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तञ्चरभ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमस्सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलारेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्रोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नेप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवकराय च नमस्तेभ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः चष्प्याय च पेण्याय च नमः सिकत्याय च प्रवाह्याय च नमः इरिण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमे वत्केभ्यः द्रावे अन्धसस्पते दरिद्रं नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्रशिवा तरो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयत्वेराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्नरातुरम् मृडानो रुद्रोतनो मयस्कृते क्षयत्वेराय नमसा विधेमते यच्छम् च योऽस्य मनुराय जे पिता तदश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते आरात्ते गोघ्र उत पूरुषग्ने क्षयद्वेराय सुन्दमस्नेते अस्तु रक्षा च नो अधि च देव ब्रूयदा च नः शर्म यच्छ विबर्हाः स्तुहि श्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परिक्वेशस्य दुर्मतिरधायोः अवस्थिरा मघवध्यस्तनुष्वमीघस्तोकायतनयाय मृणया मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः प्राचीन मुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन्महत्यर्णवेहेऽन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो ऋषिकासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथि रक्षय ऐलभृदाय व्युदः ये तीर्धारिः प्रचरन्ति शृकावन्तोऽनिषङ्गिनः य एतावन्तश्च भूयागुंशश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वधन्वारि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशो दीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो भक्त्याय हन्तवे तान्यज्ञस्य मायया सर्वा नवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनानेनाव्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु ह्यश्विषुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाचेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तरोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे म्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्भिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शनम् च मे मयश्च मे प्रियम् च मे अनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच् च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे सेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च म औद्भिद्यम् च मे रयश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेऽन्नम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदु ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे ಸ್ವರವಶ್ಚ ಮಸಾಶ್ಚ ಮೇ ಗ್ರಾವಾನಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮೌ ಪರವಾಶ್ಚ ಮೇ ಭಿಷವಣೆ ಚ ಮೇ ದ್ರೋಣ ಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾನಿ ಚ ಮೇ ಪೋತ ಭೃಚ್ಛ ಮಾಧವನೀಯಶ್ಚ ಮ ಆಗ್ನೇರ್ಧ್ರಂ ಚ ಮೇ ಹವಿರ್ಧಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶಾಶ್ಚ ಮೇ ಪಜತಾಶ್ಚ ಮೇ ವಭೃತಶ್ಚ ಮೇ ಸ್ವಗಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಧರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮೇ ಋತಿಶ್ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮೇ ಶಕ್ವರೀರಂಗುಲಯೋ ದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಕ್ಷ ಮೇ ಸಾಮ ಚ ಮೇ ಸೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಮರುತುಶ್ಚ ಮೇ ವ್ರತಂ ಚ ಮೇ ಹೋರಾತ್ರಯೋರ್ವೃಷ್ಟ್ಯಾ ಬೃಹದ್ರದಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾಂ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಚ್ಚ ಮೇ ದಿತ್ಯೌಹಿ ಚ ಮೇ ಪಂಚಾವಿಶ್ಚ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಚ್ಚ ಮೇ ತುರ್ಯೌಹಿ ಚ ಮೇ ಪಷ್ಠವಾಚ್ಚ ಮೇ ಪಷ್ಠೌಹಿ ಚ ಮಹುಕ್ಷಾ ಚ ಮೇ ವಶಾ ಚ ಮೃಷಭಶ್ಚ ಮೇ ವೇಹಶ್ಚ ಮೇ ನಡ್ವಾಂಚ ಮೇ ಧೇನುಶ್ಚ ಮಾಯುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪ್ರಾಣೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಅಪಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಶ್ರೋತ್ರಂ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಆತ್ಮಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾಚ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮ ಏಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮ ಏಕವಿಗುಂಶತಿಶ್ಚ ಮೇ ತ್ರಯೋವಿಗುಂಶತಿಶ್ಚ ಮೇ ಪಂಚವಿಗುಂಶತಿಶ್ಚ ಮೇ ಸಪ್ತವಿಗುಂಶತಿಶ್ಚ ಮೇ ನವವಿಗುಂಶತಿಶ್ಚ ಮ ಏಕತ್ರಿಗುಂಶಚ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂಶಚ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ಚತುರ್ವಿಗುಂಶತಿಶ್ಚ ಮೇಷ್ಟಾವಿಗುಂಶತಿಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಗುಂಶಚ್ಚ ಮೇ ಷಟ್ರಿಗುಂಶಚ್ಚ ಮೇ ಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇಷ್ಟಾಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇ ವಾಜಶ್ಚ ಪ್ರಸವಶ್ಚಾಪಿಜಶ್ಚ ಕ್ರತುಶ್ಚ ಸುವಶ್ಚ ಮೂರ್ಧಾ ಚ ವ್ಯಸ್ನಿಯಸ್ತ್ಯಾಂತ್ಯಾಯನಸ್ತ್ಯಾಂತ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾ ದೇವಹೋರ್ಮನುರ್ಯಜ್ಞನೇರ್ಬೃಹಸ್ಪತಿರುಕ್ಥಾಮದಾನಿಷಗುಂಸಿ ಷದ್ವಿಶ್ವೇ ದೇವಾಸೋಕ್ತವಾಚ ಪೃಥಿವಿಮಾತರ್ಮಾಮಾಹಿಗುಂಸೇರ್ಮಧುಮನಿಷ್ಯೇ ಮಧುಜನಿಷ್ಯೇ ಮಧುವಕ್ಷ್ಯಾಮಿ ಮಧುವದಿಷ್ಯಾಮಿ ಮಧುಮತೀ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾಸಗುಂ ಶುಶ್ರೂಷೇಣ್ಯಾಂ ಮನುಷ್ಯೇಭ್ಯಸ್ತಂ ಮಾ ದೇವಾ ಅವಂತು ಶೋಭಾಯೈ ಪಿತರೋ ನು ಮದಂತೋ ಓಂ ಶಾಂತಿ 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 ಓಂ ತತ್ಸಂಯೋರಾವೃಣೀಮಹೆ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೈವೀ ಸ್ವಸ್ತಿರಸ್ತು ನಃ स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् चिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषा नः यदन्येनातिरोहति एतापानस्य महिमा अतोज्यायाश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादूर्ध उदैत्पुरुषः पादोऽस्येह भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्ततमिधः कृताः देवायज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचः सामानि जग्मिरे छन्दागुंसि जग्मिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गामोह जग्मिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यददुः कलिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का ऊरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरो तदस्य यद्वैश्यः पद्भ्यागुम् श्रोत्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भोभिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रतिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తే హనాకం మహిమానః సచంతే యత్ర పూర్వే సాధ్యాః సంతి దేవాః అభ్యః సంభూత పృథివ్యైరసా చ విశ్వకర్మణః సమవర్తతాధి తస్య త్వష్టా విదధద్రూపమేతి తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా విద్యతే యనాయ ప్రజాపతిశ్చరతి గర్భే అంతః యజాయమానో బహుధా విజాయతే తస్య ధీరాః పరిజానంతి యోనిం మరీచీనాం పదమిచ్ఛంతి వేధసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే త్రేష్టతే లక్ష్మీశ్చ పత్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ వ్యాప్తం ఇష్టం మనిషాణా అహం మనిషాణా సర్వం మనిషాణా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవీ స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అత్తు ద్విపదే షం చతుష్పదే ఓం శాంతి శాంతి శాంతిః ఓం భద్రం కర్ణేభ్యః శృణుయామదేవాః భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగైః సుష్టువాగుంసస్తనోభిః యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి నః పూషా విశ్వవేదాః స్వస్తి నస్తార్క్ష్యో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు ఓం శాంతి శాంతి శాంతిః తస్మిన్ రాజాధమతి విశ్రయేమమితి తే అస్మై సర్వే కశ్యపా జ్యోతిర్లభంతే తాన్ సోమ కశ్యపాది నిర్ధమతి భ్రష్టా కర్మకృతి వైవం ప్రాణో జీవానీంద్రియ జీవాని సప్తశీర్షన్యాః ప్రాణాః సూర్యా ఇత్యాచార్యాః అపశ్యమహమేతాన్ సప్త సూర్యాని తే పంచకర్ణో వాత్స్యాయనః సప్తకర్ణశ్చ ప్లాక్షిః ఆనుశ్రవిక ఏవ నౌ కశ్యప ఇతి ఉభౌ వేద ఇతి నహిషేకుమివ మహామేరుం గంతుం అపశ్యమహమేతత్ సూర్యమండలం పరివర్తమానం గార్గ్యః ప్రాణత్రాతః గచ్ఛంత మహామేరుం ఏకం చాజహతం భ్రాజరటరపతంగా నిహనే తిష్టన్నాతపంతే తస్మాదిహతప్త్రితపాః అముత్రేతరే తస్మాదిహాతప్త్రితపాః तेषामेषा भवति सप्तसूर्यादिवमनुप्रविष्टाः तानन्वेति पतिभिर्दक्षिणावान् ते अस्मै सर्वे घृतमातपन्ते ऊर्जम् दुहाना अनपस्फुरन्त इति सप्तर्त्विजः सूर्या इत्याचार्याः तेषामेषा भवति सप्तदिशो नाना सूर्याः सप्त होतार ऋत्विजः देवा आदित्या ये सप्त तेभिः सोमाभिरक्षण इति तदप्याम्यायः दिग्भ्राजऋतोऽन्करोति एतयैवावृता सहस्रसूर्यदाय इति वैशम्पायनः तस्यैषा भवति यद्याव इन्द्रते शतगुं शतम् भूमेः उत स्युः नत्वा वज्रिन् सहस्रगुं सूर्याः अनुनजातमष्टरोदसी इति नानालिङ्गद्वादृणान्नानासूर्यत्वम् अष्टौ तु व्यवसिता इति सूर्यमण्डलान्यष्टात ऊर्ध्वम् तेषामेषा भवति चित्रम् देवानामुददादनीकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राध्या वा पृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्तुषश्चेति क्वेदमब्रन्निविशते क्वायगुम् संवत्सरोमितः क्वाह क्वेयम् देवरात्रे क्व मासारुदवश्रिताः अर्धमासा मुहूर्ताः निमेषास्तुटिभिः सह क्वेमा आपो निविशन्ते यदितो यान्ति सम्प्रति काला अप्सु निविशन्ते आपः सूर्ये समाहिताः अभ्राण्यपः प्रपद्यन्ते विद्युत्सूर्ये समाहिता अनवर्णे इमे भूमि इयम् चासौ च रोदसे किग्स्विदत्रान्तरा भूतम् येनेमे विधृते उभे विष्णुना विधृते भूमि इति वत्सस्य वेदना इरावती धेनुमतिः भूतम् सूर्यवसिनी मनुषे दशस्ये व्यश्नभ्राद्रोदसे विष्णवेते दादर्तपृथिवीमभितो मयूखैः किम् तद्विष्णोर्बलबाहुः का दीप्तिः किम् परायणम् एको यद्धारयद्देवः रेजते रोदसे उभे वाताद्विष्णोर्बलबाहुः अक्षराद्दीप्तिरुच्यते त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् अग्नयो वायवश्चैव एतदस्य परायणम् पृच्छामि त्वा परम् मृत्युम् अवमम् मध्यमम् च तुम् लोकम् च पुण्यपापानाम् एतत्पृच्छामि सम्प्रति अमुमाहुः परम् मृत्युम् पवमानम् तु मध्यमम् अग्निरेवावमो मृत्युः चन्द्रमा शरुरुच्यते अनाभोगा परम् मृत्युम् पापाश्चय्यन्ति सर्वदा आभोगास्त्वेव संयन्ते यत्र पुण्यकृतो जनाः ततो मध्यममायन्ते चतुमग्रिम् च सम्प्रति पृच्छामि त्वा पापकृतः यत्र यातयते यमः त्वन्नस्तद्ब्रह्मन् प्रब्रूहि यदिवेथा सतो गृहान् तस्य पादुदिता सूर्याः पापा निर्घ्नन्ति सर्वदा रोदस्योरन्तर्देशेषु तत्रन्यस्यन्ते वासवैः ते शरीरा प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपान्यपादकेशासः तत्र देयो निजा जनाः मृत्वा पुनर्मृत्युमापद्यन्ते अद्यमाना स्वकर्मभिः आशातिकाक्रिमय इव ततः पूयन्ते वासवैः अपैतम् मृत्युञ्जयते य एवम् वेद सकल्वैवम् विद्ब्राह्मणः दीर्घश्रुत्तमो भवति कश्यपस्यादिति सिद्धागमनः तस्यैषा भवति आयस्मिन् सप्तवासवाः रोहन्ति पूर्व्यारुहः ऋषिरः दीर्घश्रुत्तमः इन्द्रस्य कर्मो अतिधिरिते कश्यपः पश्यको भवति यत्सर्वम् परिपश्यतीति सौक्ष्म्यात् अधाग्नेरष्टपुरुषस्य तस्यैषा भवति अग्नेन यसुपथाराणे अस्मान् विश्वानि देववयुनानि विद्वान् युयोध्यस्मज्जुहुरानमेनः भूयिष्ठाम् ते नम उक्तिम् विधेमेते अग्निश्च जातवेदाश्च सहोजा अजिरा प्रभुः वैश्वानरो नर्यापाश्च पङ्क्तिराधाश्च सप्तमः विसर्पेवाष्टमोऽग्रीणाम् एतेष्टौ वसवः क्षिता इति यथत्वेराग्नेरच्चिर्वर्णविशेषाः नीलाश्चिश्च पीतकाश्चिश्चेते अथवा योरेकादशपुरुषस्यैकादशस्त्रीकस्य प्रव्राजमानाव्यवदाताः याश्च वासुकि वैद्युताः रजताः परुषाः श्यामाः कपिला अतिलोहिताः ऊर्ध्वा अवपतन्ताश्च वैद्युत इत्येकादश नैनम् वैद्युतो हि नस्ति य एवम् वेद स होवाच व्यासः पाराशर्यः विद्युद्वदमेवाहम् मृत्युमयेच्छमिति न त्वकामगुम् हन्ति य एवम् वेद अथ गन्धर्वगणाः स्वानब्राट् अङ्गारिर्बम्भारिः हस्तः सुहस्तः कृशानुर्विश्वावसुः मूर्धन्वान् सूर्यवर्चाः कृतिरित्यैकादश गन्धर्वगणाः देवाश्च महादेवाः रश्मयश्च देवागरगिरः नैनम् गरो हि नस्ते य एवम् वेद गौरीमिमायसलिलानि तक्षते एकपदी द्विपदी सा चतुष्पदे अष्टापदी नवपदी बभूवुषे सहस्राक्षरा परमे व्योमन्निते वाचो विशेषणम् अथ निगदव्याख्यायाः ताननुक्रमिष्यामः वराहवस्व तपसः विद्युन्महसोधूपयः स्वापयो गृहमेधाश्चेत्येते ये ते मे शिमि विद्विषः पर्जन्या सप्त पृथिवीमभिवर्षन्ते वृष्टिभिरिते एतयैव विभक्तिविपरीताः सप्तभिर्वादैरुदीरिताः अमो लोकानभिमर्षन्ते तेषामेषा भवति समानमेतदुदकम् उच्चैत्यवचाहभिः भूमिम् पर्जन्या जिन्वन्ते दिवम् जिन्वन्त्यग्नय इति यदक्षरम् भूतकृतम् विश्वे देवा उपासते महर्षिमस्य गोप्तारम् जमदग्निमकुर्वता जमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः राज्ञः सोमस्य तृप्ता सह ब्रह्मणा वीर्यावता शिवानः प्रदिशो दिशः तच्छंयोरावृणीमहे गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे सोमपा असोमपा इति निगतव्याख्याताः सहस्रवृदियम् भूमिः परम् व्योम सहस्रवृत् अश्विना भुज्योना सत्या विश्वस्य जगतस्पते जाया भूमिः पतिर्व्योमा मिथुनन्ता अतुर्यतुः पुत्रो बृहस्पति रुद्रः सरमा इति स्त्रीपुमम् शुक्रम् वा मन्यद्यजतम् वा मन्यत् विशुरूपे अहनीद्यौरिवस्तः विश्वाहि माया अवधः स्वधावन्तौ भद्रावाम् पोषणा विहरातिरस्तु वासात्यौ चित्रौ जगतो निधानौ द्यावा भूमि चरतः सगुंसखायौ तावश्विना रासभाश्वाहवम् मे शुभस्पति आगतगुम् सूर्यया सह शुक्रोह भुज्युमश्विनोद मेघे रयिन्न कश्चिन्ममृवाम् अवाहाः तमो हतुर्नौभिरात्मन्वतेभिः अन्तरिक्षप्रद्भिरबोधकाभिः तिस्रः क्षपस्त्रिरः तिव्रजद्भिः नारत्या भुज्युमोहतुः पतङ्गैः समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभिरथैः शतपद्भिः षडस्वैः सवितारम् वितन्वन्तम् अनुभग्नादिशाम् वरः आपपोर्षम् वरश्चैव सवितारे पशो भवत् त्यगुम् सुतृप्तम् विदित्वैव बहु सोम गिरम् वशे अन्वेति तुग्रोव क्रियान्तम् आयसूयान् सोमतृप्सुषो ससङ्ग्रामस्तमोद्योत्योतः वाचोगापि पाति तत् सतद्गोविस्तवात्येत्यन्ये रक्षसानन्विताश्च ये अन्वेति परिभृत्यास्तः एवमेतेस्थौ अश्विना ते एते द्युः पृथिव्योः अहरहर्गर्भम् दधाते ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्ति।